अथ त्रिंशः सर्गः। सान्त्यमाना तु रामेण मैथिलीजनकात्मजा वनवासनिमित्तार्थम् भर्तारमिदमब्रवीत्। सा तमुत्तमसंविघ्ना सीता विपुलवक्षसम् प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्। किम् त्वा मन्यत वैदेहः पिता मे मिथिलाधिपः। रामजामातरम् प्राप्य स्त्रियम् पुरुषविग्रहम् अनृतम् बत लोकोऽयमज्ञानाद्यदि वक्ष्यति। तेजो नास्ति परम् रामे तपतीव दिवाकरे। किम् हि कृत्वा विषण्णस्त्वम् कुतो वा भयमस्ति ते। यत्परित्यक्तु कामस्त्वम् मामनन्यपरायणा। युमत्सेन सुतम् वीरम् सत्यमन्तमनुव्रता। सावित्रीमिव माम् विद्धि त्वमात्मवशवर्तिनी। न त्वहम् मनसा त्वन्यम् द्रष्टास्मि त्वदृतेऽनघ। त्वया राघव गच्छेयम् यथान्याकुलपांसनी। स्वयम् तु भार्याम् कौमारीम् चिरमध्युषिताम् सतीम्। शैलूष इव माम् राम परेभ्यो दातुमिच्छसि। यस्य पथ्यम् च रामार्थ यस्य चार्थे वरुध्यसे। त्वम् तस्य भव वश्यश्च विधेयश्च सदा नघ। समामनादाय वनम् न त्वम् प्रस्थितुमर्हसि। तपो वा यदि वारण्यम् स्वर्गो वा स्यात् त्वया सह। न च मे भविता तत्र कश्चित् पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव कुशकाशरेषीका ये च कण्टकिनोद्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया। महावातसमुद्भूतम् यन्मामवकरिष्यति। रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम्। शाद्वलेषु यदाशिष्ये वनान्तर्वनगोचरा। कुथास्तरणयुक्तेषु किम् स्यात् सुखतरम् ततः। पत्रम् मूलम् फलम् यत्तु अल्पम् वा यदि वा बहु। दास्यसे स्वयमाहृत्य तन्मे मृतरसोपमम्। न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः। आर्तवान्यपभुञ्जाना पुष्पाणि च फलानि च। न च तत्र ततः किञ्चित् द्रष्टुमर्हसि विप्रियम्। मत्कृतेन च ते शोको न भविष्यामि दुर्भरा। यस्त्वया सह सस्वर्गो निरयो यस्त्वया विना। इति जानन् पराम् प्रीतिम् गच्छ राम मया सह। अथ मामेवमव्यग्राम् वनम् नैव नयिष्यसे। विषमद्यैव पास्यामि मावशन्द्विषताम् गमम्। पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्। उज्झितायास्त्वया नाथ तदैव मरणम् वरम्। इमम् हि सहितुम् शोकम् मुहूर्तमपि नोत्सहे। किम् पुनर्दश वर्षाणि त्रीणि चैकम् च दुःखिता। इति सा शोकसन्तप्ता विलप्य करुणम् बहु। चुक्रोशपतिमायस्ता भुजमालिङ्ग्य सस्वरम्। सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना। चिरसन्नियतम् बाष्पम् मुमोचाग्निनिवारणिः। तस्या स्फटिकसङ्काशम् वारिसन्तापसम्भवम्। नेत्राभ्याम् परिसुस्रावपङ्कजाभ्यामिवोदकम्। तत्सितामलचन्द्राभम् मुखमायतलोचनम्। पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्। ताम् परिष्वज्य बाहुभ्याम् विसञ्ज्ञामिव दुःखिताम्। उवाच वचनम् रामः परिविश्वासयंस्तदा। न देवि पद दुःखेन स्वर्गमप्यभिरोचये। न हि मेऽस्ति भयम् किञ्चित् स्वयम् भोरिव सर्वतः। तव सर्वमभिप्रायमविज्ञाय शुभानने। वासन्न रोचये रण्ये शक्तिमानपि रक्षणे। यत्सृष्टासि मया सार्धम् वनवासाय मैथिली। न विहातुम् मया शक्या प्रीतिरात्मवता यथा। धर्मस्तु गजनासोरुसद्भिराचरितः पुरा। तम् चाहमनुवर्तिष्ये यथा सूर्यम् सुवर्चला। न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनी। वचनम् तन्नयति माम् पितुः सत्योपबृंहितम्। एष धर्मश्च शुश्रोणि पितुर्मातुश्च वश्यता। आज्ञाम् चाहम् व्यतिक्रम्य नाहम् जीवितुमुत्सहे। अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते। स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम्। यत्र त्रयम् त्रयो लोकाः पवित्रम् तत्समम् भुवि नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते न सत्यम् दानमानौ वा यज्ञो वाप्याप्तदक्षिणः तथा बलकरास्सीते यथा सेवा पितुर्मता स्वर्गो धनम् वा धान्यम् वा विद्या पुत्राः सुखानि च गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा परान् प्राप्नुवन्ति महात्मानो माता पितृपरायणाः समापिता यथा शास्ति सत्यधर्मपथे स्थितः तथा वर्तितमिच्छामि स हि धर्मः सनातनः मम सन्नामतिः सीते नेतुम् त्वाम् दण्डकावनम् वसिष्यामीति सा त्वम् मामनुयातुम् सुनिश्चिता सा हि दिष्टानवद्याङ्गिवनायमदिरेक्षणे अनुगच्छस्व माम् भीरुसह धर्मचरी भव सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् देहि चाशंसमानेभ्यः सन्त्वरस्व च माचिरम् भूषणानि महार्हाणि वरवस्त्राणि यानि च रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः शयनीयानि यानानि मम चान्यानि यानि च देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् अनुकूलम् तु सा भर्तुर्ज्ञात्वा गमनमात्मनः क्षिप्रम् प्रमुदिता देवी दातुमेव प्रचक्रमे ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम् धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृताम् मनस्विनी इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिंशः सर्गः